इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य उत्तरप्रदेशस्य वाराणस्यां चतुर्णां नूतनानां वन्दे भारत एक्सप्रेस रेलयानानां ध्वजारोहणं विधास्यति। श्रीमोदी ह्यः सायंकाले स्वसंसदीय क्षेत्रं वाराणसीं समागच्छत्। मोदीवर्यस्य आगमनसमये नगरस्य जनाः दलस्य कार्यकर्तारः च तस्य भव्यं स्वागतम् अकुर्वन्। नूतनानि वन्दे भारत एक्सप्रेस रेलयानानि बनारस खजुराहो लखनऊ सहारनपुर फिरोजपुर दिल्ली एर्नाकुलम बेंगलुरु मार्गेषु च प्रचलन्ति। एतानि रेलयानानि यात्रा समयं न्यूनीकर्तुं क्षेत्रीय गतिशीलतां वर्धयितुं पर्यटनस्य प्रोत्साहनं कर्तुं वर्तते। सममेव कृत्स्नेहि देशे आर्थिक गतिविधीनां समर्थनं च करिष्यन्ति। प्रधानमन्त्री नरेन्द्र मोदी नवदिल्ल्यां राष्ट्रगीतस्य वन्दे मातरम् इत्यस्य 50-तमस्य वर्षपूर्त्यवसरे स्मरणोत्सवस्य उद्घाटनम् अकरोत्। अस्मिन्नवसरे प्रधानमन्त्रिणा स्मारकमुद्रिकायाः मुद्रायाः च विमोचनं कृतम्। नवदिल्ल्याम् इन्दिरागान्धी इण्डोर स्टेडियम् इति क्रीडाङ्गणे कार्यक्रमं सम्बोधयन् प्रधानमन्त्री अवोचत् यत् वन्दे मातरम् इति मन्त्रम् ऊर्जा स्वप्नं संकल्पः च अस्ति। सः एतत् मन्त्रं भारतमातुः भक्त्याराधनयोः कृते प्रशंसितवान्। यन्मन्त्रम् इतिहासं प्रति पुनः नयति, वर्तमानं आत्मविश्वासेन पूरयति तथा च भविष्याय नूतनं साहसं प्रयच्छति। यथा किमपि संकल्पं साधयितुं शक्यते तथा च किमपि लक्ष्यं नास्ति यत् साधयितुं न शक्यते।
हमें इस सदी को भारत की सदी बनाना है। ये सामर्थ्य भारत में है, ये सामर्थ्य भारत के 140 करोड़ लोगों में है। हमें इसके लिए खुद पर विश्वास करना होगा। दुनिया का सबसे बड़ा डेमोग्राफी एडवांटेज हमारे पास।
राष्ट्रपति पदासीना द्रौपदी मुर्मू अद्य अंगोला बोट्स्वाना देशयोः यात्रां करिष्यति। राष्ट्रपतिः तस्याः समकक्षस्य जोआओ मैनुअल गोन्साल्वेस लोरेन्को इत्यस्य आमन्त्रणेन प्रवासस्य प्रथमपादे अंगोला देशं प्रति एष्यति। अस्मिन् वर्षे भारत अंगोला देशौ कूटनीति सम्बन्धस्य 40वां वार्षिकोत्सवम् आचरतः। बिहार विधानसभा निर्वाचनस्य द्वितीयस्य अन्तिमस्य च चरणस्य निर्वाचनस्य प्रचारः चरमोत्कर्षं प्राप्नोत्। एनडीए महागठबंधन इत्येतयोः दलयोः वरिष्ठ नेतारः प्रमुख प्रचारकाः च अन्य दल नेतृभिः सह मतदान क्षेत्रेषु भ्रमणं कुर्वन्तः सन्ति। औरंगाबाद जनपदे एकां जनसभां संबोधयन् भाजपा दलस्य वरिष्ठ नेता प्रधानमंत्री च नरेन्द्र मोदी अकथयत् यत् एनडीए दलम् एव विकसितस्य बिहारस्य निर्माणं करिष्यति। सः अकथयत् यत् बिहारः एनडीए दलस्य घोषणापत्रे विश्वसिति। भभुआ जनपदे एकाम् अन्यां जनसभां सम्बोधयन् प्रधानमन्त्री आरोपं प्रख्यापितवान् यत् कांग्रेस दले बिहारस्य युवानः पथभ्रष्टं कर्तुम् अनेकान् प्रयासान् अकुरुताम्, परञ्च तयोः एताः योजनाः विफलीभूताः। सीमांचल मगध शाहाबाद चंपारण इत्येतेषु मण्डलेषु विभिन्नेषु दलानां नेतारः सघनानि निर्वाचन अभियानानि आचरन्ति। कांग्रेस दलस्य नेता राहुल गांधी वर्यः बांगा नगरे महागठबंधन दलस्य अभ्यर्थिनां कृते जनसभां संबोधयत्। श्री गांधी वर्यः अवदत् यत् बिहारस्य जनाः स्व अधिकार विषये अवगताः सन्ति। पुरुष क्रिकेट क्रीडायाम् अद्य ब्रिस्टवन नगरस्य गब्बा क्षेत्रे पंच T20 श्रृंखलायाः अन्तिम क्रीडायाम् आतिथेय ऑस्ट्रेलिया देशेन सह भारतं स्पर्धते। भारतीय समयानुसारं अपराह्णे पादोन द्विवादने इयं स्पर्धा आरप्स्यते इति निर्धारितमस्ति। इति वार्ताः।